सर्वेषां समासचिन्तनवर्गं प्रति स्वागतं. प्रवर्तमानः विषयः अस्ति अव्ययीभावसमासः. अव्ययीभावसमाससम्बद्धसूत्राणि अष्टाध्यायीसूत्रपाठः इत्यस्मिन् पुस्तके षट्चत्वारिंशत्तमे पुटे सन्ति. प्रथमतया तानि सूत्राणि एकवारम् अवलोक्य करपत्रं प्रति सरेम. तदर्थं प्रथमतया सूत्राणि एकवारं पठामः. अत्र शर्मिला भगिनी भवती पठतु, सूत्राणि एकवारं स्मारयतु पुस्तकं दृष्ट्वा.
अव्ययीभावः इत्यतः अव्ययीभावः अव्ययं विभक्तिसमीपसमृद्धि व्यर्थ्यर्थाभावात्यया सम्प्रति शब्दप्रादुर्भावः पश्चाद्यथानुपूर्व्य योगपद्यसादृशसम्पत्ति साकल्यान्तवचनेषु यथासादृशे यावदवधारणे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्याः सङ्ख्याः परिणा विभाषा अपरिबहिरञ्चवः पञ्चम्या आङ्मर्यादाभिविध्योः लक्षणे नाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठद्गुप्रभृतिनी च पारे मध्ये षष्ठ्या वा सङ्ख्यावंशेन नदीभिश्च अन्यपदार्थे च संज्ञायाः.
सम्यक् सम्यक् भगिनी, सम्यक् उक्तवती. अत्र अत्र प्रथमं सूत्रम् अव्ययीभावः अधिकारसूत्रमस्ति, अपि च तेन अव्ययीभावसमाससंज्ञा दीयते. द्वितीयं सूत्रं दीर्घसूत्रेण अव्ययीभावसमासविधानं भवति. अव्ययीभावश्च इति संज्ञासूत्रमस्ति, तेन अव्ययीभावसमासः अव्ययं भवति. अपि च अव्ययीभावश्च इति द्वितीयाध्याये यत् सूत्रमस्ति तेन अव्ययीभावसमासः नपुंसकलिङ्गपदं भवति. एतत् सर्वं वयं पूर्वमेव दृष्टवन्तः. अव्ययीभावसमासप्रसङ्गे स्मर्तव्याः अंशाः केचन सन्ति. स्मर्तव्याः अंशाः के इत्युक्ते, तत्र उत्तरपदम् अव्ययीभावसमासस्य उत्तरपदं कीदृशं पदमस्ति इति चिन्तनीयम्. उत्तरपदम् अव्ययीभावसमासे अजन्तमस्ति चेत्, अजन्तपदमस्ति चेत् तत्र ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण प्रातिपदिकस्य ह्रस्वत्वं भवति. पदम् उत्तरपदं नौका अस्ति चेत् नौक इति भवति, शाला अस्ति चेत् शाला भवति, रमा अस्ति चेत् रम इति भवति. ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण. तदनन्तरम् उत्तरपदम् अदन्तम् अस्ति चेत् इत्युक्ते ह्रस्व अकारान्तम् अस्ति चेत् तत्र अव्ययात् आप्सुपः इति सूत्रं प्रबाध्य न अव्ययीभावादतोऽन्त्वपञ्चम्याः इति सूत्रेण तत्र सुब्लुक् अभूत्वा न अव्ययीभावादतोऽन्त्वपञ्चम्याः इति सूत्रेण अम् आदेशः भवति, किन्तु पञ्चमीविभक्त्यां न भवति. तादृशं कार्यम्. अपि च उत्तरपदम् अदन्तपदमस्ति चेत् तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तृतीयाविभक्तौ पञ्चमीविभक्त्यौ विकल्पेन रूपद्वयं सिध्यति इति वयं दृष्टवन्तः. एते विषयाः सदा स्मर्तव्याः. अपि च तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तत्र वयम् एकं समस्तपदं स्वीकृत्य परिशीलितवन्तः. अधिगोपम् इति पदं स्वीकृत्य वयं प्रक्रियां दृष्टवन्तः. तृतीयाविभक्त्यां तस्य रूपम् अधिगोपम् अधिगोपेन इति भवति. अपि च सप्तमीविभक्त्याम् अधिगोपम् अधिगोपे इति रूपं भवति. पञ्चमीविभक्त्याम् एकमेव रूपम् अस्ति, अधिगोपात्. गते सप्ताहे अधिगोपात् इति पदस्य प्रसङ्गे, अधिगोपम् इति पदस्य प्रसङ्गे वयं किञ्चित् अवगतवन्तः. अद्य वयम् उत्तरपदं हलन्तमस्ति चेत् कीदृशानि कार्याणि भवन्ति, तत्र विशिष्टसूत्राणि सन्ति वा, एतत् सर्वम् अद्य वयं परिशीलयामः. तदर्थम् अधुना सर्वे अत्र करपत्रं पश्यन्तु. करपत्रे अध्यात्मम् इति पदस्य प्रसङ्गे अद्य वयं पठेम. उत्तरपदं हलन्तं चेत् किं भवति इति चिन्तनीयः विषयः अधुना. सरस्वती भगिनी भवती पठतु.
अस्तु भगिनि. उत्तरपदं हलन्तं चेत् आत्मनि इत्येव अध्यात्मम् अध्यात्मम् अलौकिकविग्रहवाक्यम् आत्मन् योगनी योग अधि समाससंज्ञा भवति प्राक्कडारात् समासः इति सूत्रेण. अव्ययीभाव इति इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति. अव्ययं विभक्ति समीपसमृद्धिवृद्धि अर्थाभाव अत्रेय असम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति सात्पर्यन्तवचनेषु इति सूत्रेण अधि इति अव्ययं समर्थेन आत्मनि इति सुबन्तेन सह समस्यते. एतेन सूत्रेण अव्ययीभावसमासः विधीयते. तर्हि लौकिकविग्रहं कृत्वा लौकिकविग्रहमस्ति आत्मनि इति अध्यात्मं, परन्तु अलौकिकविग्रहः अस्ति सप्तमी विभक्ते अतः आत्मन् योगनी योग अधि. तर्हि प्राक् कणारात् समासः अधिकारसूत्रः प्रथमः भवति. तदनन्तरम् अधि इति अव्ययमस्ति अतः अव्ययीभावसूत्रेण समस्तपदमपि अव्ययीभावसमासः संज्ञा भवति. दीर्घसूत्रेण अव्ययं विभक्ति समीपसमृद्धिवृद्धि अर्थाभाव अत्य सम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा अनुपूर्वे यौगपद्य सादृश्यसम्पत्ति साक्ष्यन्तवचनेषु सूत्रेण अधि अस्य अव्ययस्य समर्थेन एव आत्मनि सुबन्तेन सह मिलित्वा अव्ययीभावसमासः सम्पूर्णः भवति. आत्मन् योगनी योग अधि समासस्य प्रातिपदिकसंज्ञा भवति कृत् तदित् समासाश्च इत्यनेन सूत्रेण. आत्मन् योगनी योग अधि इदानीं सुप्रत्ययस्य लुक् लोपः भवति सुपो धातुप्रातिपदिकयोः इत्यनेन. तर्हि अत्र प्रथमं तु कृत् तदित् समासाश्च अनेन सूत्रेण समस्तपदं प्रातिपदिक संज्ञा भवति. तदनन्तरं नी प्रत्ययस्य लोपः भवति सुपो धातु प्रातिपदिकयोः इत्यनेन. आत्मन्योगनी योग अधि इत्यस्मिन् नी इत्यस्य लुक् आत्मन्योग अधि सुप्तिङन्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति. अत्र च अधि इत्यस्य अन्ते सुप् न दृश्यते तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा इति. उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा अस्ति एव. अव्ययात् परस्य सुप्रत्ययानां च लुक् भवति अव्ययादाप् सुपः इति सूत्रेण. अतः अधि इति अव्ययस्य परस्य सुप्रत्ययस्य लोपः जातः. यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्ति एव. तर्हि पुनः नी प्रत्ययस्य तु लुक् अभवत्. अधि परे सु अस्ति तस्य लोपः अव्यादाप् सुपः अनेन सूत्रेण भवति. परन्तु लुक् भूत्वा अपि प्रत्ययस्य लक्षणं तिष्ठति प्रत्ययलोपे प्रत्ययलक्षणम् अनेन सूत्रेण. अतः एव एतद् पदसंज्ञा भवति सुप्तिङ्गन्तं पदम् अनेन सूत्रे.
अध्यात्मम् इति पदमस्ति समस्तपदम्. आत्मनि इति लौकिकविग्रहवाक्यं. नी इति सप्तमी विभक्ति एकवचनप्रत्ययः अस्ति सुप्रत्ययः अस्ति. तदनन्तरम् इदं पदं समस्तपदमस्ति इति कृत्वा कृत्तद्धितसमासाश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति. तदनन्तरं सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुक् भवति. तावदेव. अनन्तरम् अत्र भगिन्या अन्यत् उक्तमस्ति. तत् किम् इत्युक्ते एकदेशविकृतस्य अनन्यत्वात् इति एकं वार्तिकं वा किमपि उक्तवती भगिनी, किञ्चित् वदति वा भगिनी तस्य अर्थः कः? कोऽपि वदतु. एकदेशे विकृतस्य अनन्यवत्वात् इत्यस्य प्रसक्तिः अत्र किमर्थम्? श्रीराम महोदय, भवान् वदति वा? अत्र किमर्थं भगिनी उक्तवती इत्युक्ते, तत्र एकं वार्तिकमस्ति एकदेशविकृतस्य अनन्यवत्वात् इत्युक्ते, यद्यपि तत्र शुनकः अस्ति तस्य उच्चस्य कर्तनं कुर्मः चेदपि सः शुनकः एव भवति, न तु गर्धपः. इत्युक्ते यद्यपि अत्र अधीति शब्दात् इति पदात् अन्ते स्थितस्य सुप्रत्ययस्य लोपः अव्ययात् आप्सुपः इति सूत्रेण अभवत्, किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तस्य प्रत्ययलक्षणं तत्र तिष्ठति इति कृत्वा सुप्तिङन्तम् इति पदं सुप्तिङन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा अस्ति इति अवगन्तुं तत्र भगिन्या एकं वाक्यम् उक्तमस्ति, एकदेशविकृतस्य अनन्यत्वात् इति उक्तवती. तदनन्तरमत्र हलन्तम् इति एकं पदमस्ति. हलन्तम् इति पदमपि बहुव्रीहिसमासयुक्तं पदं. कथम् इत्युक्ते, हल् अन्ते यस्य तत् हलन्तं. तत्र पदम् उत्तरपदम् इति शब्दस्य विशेषणमस्ति हलन्तम् इति. तद् साधारणतया बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति. हल् अन्ते यस्य तत् हलन्तं, किन्तु पुंलिङ्गे वक्तुमिच्छामश्चेत् हलन्तः, हलन्तः शब्दः, हलन्तं पदं, हल् अन्ते यस्य सः हलन्तः इति भवति. अपि च अत्र एतत् सर्वम् अस्माभिः ज्ञातमेव. अनन्तरम् उषा भगिनी अग्रे पठतु, अग्रिमे परिच्छेदे किमस्ति?
श्रूयते वा भगिनि?
श्रूयते.
ओके. अधि योगः आत्मन् अव्ययीभावश्च इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य
भगिनि भगिनि तस्मात् पूर्वं प्रथमानिर्दिष्टं समास उपसर्जनं
आत्मन्योगः अधि अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति. अत्र अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि अर्थाभाव अत्ययासं प्रति शब्दप्रादुर्भावपश्चात् यथा अनुपूर्वयौगपद्य सादृश्यसम्पत्तिसाकल्य अन्तवचनेषु इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण. अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति. अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति. अत्र अधि इति अव्ययं तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. आत्मन्योगः अधि इत्यस्य द्वयोः मध्ये यस्य पदम् उपसर्जनसंज्ञा भवति इति प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण निर्णयितुं शक्यम्. अव्ययं विभक्तिसमीप दीर्घसूत्रेण अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति. अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति. अधुना उपसर्जनं पूर्वम् इति सूत्रेण अधि इति पदम् उपसर्जनसंज्ञा भवति. सो इट् बिकम्स् अधियोगः आत्मन्. अधियोग
इत्युक्ते अत्र किं ज्ञातम् अस्माभिः इत्युक्ते, तस्य उपसर्जनसंज्ञा भूत्वा अधिशब्दस्य पूर्वप्रयोगः पूर्वप्रयोगः भवति. तत्र अधि इति पदमेव अव्ययपदं, तदर्थमेव तस्य उपसर्जनसंज्ञा भूत्वा अधि इति पदस्य पूर्वप्रयोगः भवति इति विषयः. अग्रे पठतु.
अधियोगः आत्मन् अव्ययीभावश्च इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य अव्ययम् इति संज्ञा भवति. अव्ययीभावश्च इति सूत्रेण अधियोगः आत्मन् पूर्वेण अव्ययं संज्ञा भवति. अधियोगः आत्मन् अत्र इको एणचि इति सूत्रेण यण् सन्धिं कृत्वा आध्यात्मन् इति भवति. तस्य अव्ययसंज्ञा भवति अव्ययीभावश्च आध्यात्मन्.
अत्र भगिनि अव्ययीभावश्च इति सूत्रं प्रथमाध्याये अस्ति. तेन सूत्रेण अव्ययीभावसमासेन निर्मितशब्दः अव्ययपदं भवति इति विषयः. इको यणचि प्रसङ्गे किञ्चित् वदतु.
इकः यण् अचि, इकः परस्य अचि चेत् इकः शब्दस्य यण् आदेशः भवति.
उत्तमम्. अत्र इको यणचि इति यण् सन्धेः विधायकसूत्रमस्ति. इक् इति एकः प्रत्याहारः, यण् इति अन्यः प्रत्याहारः, अच् प्रत्याहारः. तत्र वयं महेश्वराणि सूत्राणि परिशील्य वयम् अवगन्तुं शक्नुमः. इकः इकः इति षष्ट्यन्तमस्ति. इक् वर्णानां स्थाने यन् वर्णादेशः भवति अचि परे इति अर्थः. एतत् सन्धिसूत्रमस्ति. साधारणतया समासे सन्धिः नित्यः, तदर्थं सन्धिकार्यं कृतवन्तः. अग्रे किं भवति?
अध्यात्मन् योगः अध्यात्मन् इदानीम् अनश्च इति सूत्रेण अव्ययीभावसमासस्य अन्ते अन् इति विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः भवति. अध्यात्मन् पदं तस्य पदस्य अन्ते अन् इति शब्दः अस्ति. तस्मात् अनश्च इति सूत्रेण टच् इति समासान्तप्रत्ययः योज्यते.
अत्र इतोपि किम् अवगन्तव्यम्? अध्यात्मन् इति इत्यस्य अन्ते अन् अस्ति, अपि च आत्मा इति पदं पुंलिङ्गपदमस्ति. आत्मा इति पदं नकारान्तपदम् अपि च पुंलिङ्गपदमस्ति इति कृत्वा अनश्च इति सूत्रेण समासान्तप्रत्ययः ठच् इति समासान्तप्रत्ययः नित्यरूपेण विधीयते इति वयं पठितवन्तः. तत्र नपुंसकलिङ्गपदानां कृते उत्तरपदं नपुंसकलिङ्गपदमस्ति चेत्
पौर्णमास्या समथिङ्ग् लैक् दट् अण्ड् देन् नपुंसकात् समथिङ्ग् देयर् इस्.
उत्तमं.
सूत्रस्य
अग्रिमे परिच्छेदे तदेव दत्तमस्ति. इत्युक्ते अत्र इतोपि उत्तरपदं पुंलिङ्गपदमस्ति वा नपुंसकलिङ्गपदमस्ति वा अथवा स्त्रीलिङ्गपदमस्ति वा इति द्रष्टव्यम्. अनश्च इति सूत्रस्य प्रसक्तिः केवलं स्त्रीलिङ्गे पुंलिङ्गे एव भवति. उत्तरपदं स्त्रीलिङ्गं वा पुंलिङ्गं
वा
नपुंसकलिङ्गपदानां कृते नपुंसकात् अन्यतरस्यां पठतु भवती एव पठतु.
अध्यात्मन् योगः टच् इति समासान्तप्रत्ययः समासस्य अवयवः भवति. टच् इति प्रत्यये इत् संज्ञकवर्णयोः लोपानन्तरम् अकारः अवशिष्यते. आध्यात्मन् योगः आत्मन् इति पुल्लिङ्गशब्दः अस्ति, अतः नपुंसकात् अन्यतरस्याम् इति सूत्रस्य प्रसक्तिः नास्ति. नपुंसकात् अन्यतरस्याम् इति सूत्रेण नपुंसकलिङ्गे अनन्तप्रातिपदिकात् टच् इति समासान्तप्रत्ययः विकल्पेन भवति. अध्यात्मन् योगः टच् टच् प्रत्ययस्य इत्संज्ञकवर्णः लोपः भवति. चकारः इति हलन्त्यम् इति सूत्रेण लोपः, टकारः इति चुटु इति सूत्रेण टकार लोपः भवति. लोपानन्तरम् अ इति एव अ इति एव अवशिष्यते. सो आत्मनियोगः अ पुल्लिङ्गशब्दः आत्मन् इति पुल्लिङ्गशब्दः अस्ति अतः नपुंसकात् अन्यतरस्याम् इति सूत्रेण प्रसक्तिः नास्ति अत्र फार् नपुं इफ् इट् इस् इफ् आत्मन् वेर नपुंसक नपु आत्मन् इति पदं नपुंसक नपुंसक चेत् नपुंसकात् अन्यतरस्याम् इति सूत्रेण नपुंसकलिङ्गे टच् इति प्रत्ययः विकल्पेन भवति
तदर्थम् आत्मा इति पदं पुंलिङ्गपदमस्ति इति कृत्वा ब्रह्म इति पदं स्वीकुर्मः चेत् इतोपि समीचीनं भवति अस्माकं चिन्तनं ब्रह्म इति पदं पुंलिङ्गे अस्ति अपि च नपुंसकलिङ्गे अपि अस्ति पुंलिङ्गे अस्ति चेत् तत्र ब्रह्म ब्रह्माणौ ब्रह्माणः इत्यादीनि रूपाणि यथा आत्मा शब्दवत् रूपाणि भवन्ति यदि पदं ब्रह्म इति पदं नपुंसकलिङ्गपदमस्ति चेत् कर्म कर्म कर्मन् नकारान्तपदम् इव तस्य रूपाणि भवन्ति यथा भवत्या उक्तम् अत्र नपुंसकादन्यतरस्याम् इति सूत्रस्य प्रसक्तिः नपुंसकलिङ्गे एव भवति अनन्तप्रातिपदिकात् भवति इति किन्तु अत्र पदम् आत्मा इति पदं पुंलिङ्गपदमस्ति इति कृत्वा अनश्च इत्यस्य प्रसक्तिः अस्ति उत्तमं भगिनी अनन्तरम् अत्र श्रीराम महोदय भवान् पठतु अग्रिमे परिच्छेदे किमस्ति
अस्तु भगिनि अध्यात्मनियोग इदानीं नष्टदिते इति सूत्रेण तद्धितप्रत्यये पदे नकारान्तस्य बसंज्ञकस्य शब्दस्य सीसंज्ञकस्य लोपः भवति नष्टदिते इति सूत्रेण अण् इति टि भागस्य लोपानन्तरम् अध्यात्मयोग अध्यात्म इति भवति अस्तु अत्र अध्यात्मन् योग अ इति अस्ति तत्र टच् प्रत्यये योजयामः अधुना टच् प्रत्ययस्य अकार एव अवशिष्यते अध्यात्मन् योग अ इति अस्ति अस्यां स्थित्यां नष्टहिते इति सूत्रं प्रवर्तते तत् किं वदति नष्टहिते तद्धितप्रत्यये पदे टच् इति तद्धितप्रत्यये अस्ति तत् प्रत्यये पदे नकारान्तस्य भस्सज्ञकस्य नकारान्तः अस्ति अध्यात्मन् इति नकारान्तः अस्ति भस्सज्ञकस्य इत्युक्ते तद् किम् अहं न जानामि भगिनि भस्सज्ञकस्य
वदतु
टीसज्ञकस्य लोपः भवति टि इत्युक्ते अचोदन्त्यादि टि इति सूत्रं तत्र प्रवर्तते इत्युक्ते
सूत्रम् अधोभागे किञ्चित् अधोभागे दत्तमस्ति महोदय किन्तु अत्र अस्मिन् परिच्छेदे यद्यपि अयं परिच्छेदः बहु लघु अस्ति तथापि अस्मिन् परिच्छेदे बहवः विषयाः ज्ञातव्याः इत्युक्ते अत्र अध्यात्मन् योगः अ टच् इत्यस्मात् आ एव अवशिष्यते नस्तद्धिते सूत्रेण टिसंज्ञकलोपः भवति कदा तद्धितप्रत्यये परे किन्तु अत्र बहवः निकषाः सन्ति इत्युक्ते बहूनि निमित्तानि अत्र सन्ति यदि एतानि निमित्तानि पूरितानि सन्ति चेत् तत्र नस्तद्धिते इति सूत्रेण टिसंज्ञकस्य लोपः भवति अत्र त्रीणि पदानि अस्माकं कृते नूतनानि पदानि भसंज्ञकशब्दः टिसंज्ञा लोपः भसंज्ञकः इत्युक्ते भसंज्ञा नाम किं नामका टिसंज्ञा नामका इति ज्ञातव्यम् अपि च नस्तद्धिते सूत्रेण कीदृशं कार्यं भवति इत्यपि अवगन्तव्यम् अधुना अधोभागे सूत्राणि दत्तानि प्रथमतया अनश्च इति सूत्रं किं वदति एकवारं पठतु
भगिनी एकनिमिषं तस्मात् पूर्वं मम एकः प्रश्नः अस्ति
वदतु
इदानीं तु अध्यात्मन् योगः अस्ति खलु तत्र योजयित्वा टि भाग पश्यामः वा इदानीं आ, 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 यो, आ, य, य, आ, अपेनस्य योजना पूर्वं पश्यामः वा कथं ज्ञातुं शक्नुमः?
अत्र प्रथमं कार्यं किं कार्यं भवति इति वा प्रश्नः?
सत्यम्, इदानीं तु टच् आयाति वा अन् गच्छति वा, टी भागस्य लोपः भवति वा?
अत्र अहं चिन्तयामि प्रथमतया टच् विधीयते, आरम्भे टच् विधीयते, टच् इत्यस्मात् तत्र अकारः तिष्ठति. अधुना अध्यात्मन् अत्र अङ्गं कीदृशम् अङ्गमस्ति? टच् इति तद्धितप्रत्ययः अपि च प्रत्ययः अस्ति. साधारणतया प्रत्ययः प्रातिपदिकात् प्रत्ययस्य योजनं भवति. अधुना अध्यात्मन् इति अङ्गं कीदृशम् अस्ति इति चिन्तनं भवति. अत्र अध्यात्मन् इति तस्य अङ्गं भूत्वा तस्य चिन्तनं भवति. किन्तु एकस्मिन् समये
अहं किमर्थं पृच्छामि इत्युक्ते इदानीं तु अध्यात्मन् योग प्रथमं टच् प्रत्यय आयाति चेत् इदानीम् अङ्गम् अध्यात्मन भवति. अनन्तरं टी भाग पश्यामः चेत् तत्र अकार एव टी भागस्य लोपः भवति चेत् अध्यात्मन् इति तिष्ठति. किन्तु प्रथमं तु टी भागस्य लोपः भवति चेत् अध्यात्मन् अस्ति, तत्र टी भाग अन् अस्ति, अध्यात्म भवति. अनन्तरं टच् प्रत्यय आयाति चेत् अध्यात्म भवति. फलं भिन्नं
अहं चिन्तयामि. प्रथमतया नकारस्य लोपं कृत्वा, इत्युक्ते अत्र अन् इत्यस्य लोपं कृत्वा, तदनन्तरम् एव नस्तद्धिते इत्यस्य कार्यं तत्र नस्तद्धिते इत्यस्य कार्यं भूत्वा तदनन्तरम् आयोजयामः.
अस्तु, किन्तु सोपानानि पश्यामः चेत् टच् प्रथमम् अस्ति, अनन्तरं तत्र अनुबन्धलोपस्य अनन्तरम् अध्यात्मन् योग अ अस्ति. इदानीं न स्थगिते इति सूत्रेण तद्धितप्रत्यये परे किमपि अस्ति. सो ततः अहं चिन्तितवती प्रथमं टच् आयाति इति.
अस्तु, चिन्तनं तु साधु एव, किन्तु अत्र प्रथमतया अन् इति टी भागस्य लोपः भवति चेदेव अस्माकम् इष्टं रूपं साधयितुं शक्नुमः.
सत्यम्.
अहं किञ्चित् वदामि वा?
वदतु भगिनि.
अधोभागे न स्तद्धिते सूत्रस्य विवरणमस्ति, तत्र स्पष्टं लिखितमस्ति तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य शब्दस्य टीसंज्ञकस्य लोपः भवति. यदि तत् तद्धितप्रत्यये परे अस्ति तर्हि एव भसंज्ञकः भवति, तर्हि एव नकारान्तस्य भसंज्ञकस्य टीसंज्ञा भवति. यदि वयं मेलनं कुर्मः तर्हि तत्र तु भसंज्ञकः अभवत् न, तत्र भसंज्ञकः न तिष्ठति. तर्हि तस्मात् पूर्वम् एव अन् टीसंज्ञकस्य लोपः करणीयम्, अतः एव अनन्तरं योजयामः.
अस्तु अस्तु, धन्यवादः. इदानीं तु भवती वदति टच् प्रत्यय आयाति, टच् प्रत्यय इदानीं तद्धितप्रत्यय, अतः एव न स्थगिते सूत्रस्य प्रसक्तिः भवति एव.
आम्,
अस्तु, धन्यवादः. आम्, तत् सम्यक् भवति. So that, इदानीं तु ट्रिगर् अस्ति, टच् प्रत्यय आयाति चेत् तत् ट्रिगर् अस्ति, अनन्तरं न स्थगिते कार्यं करोति अन् इति टी भागस्य लोपः भवति इति.
आं भगिनि,
अस्तु, धन्यवादः. इदानीं तु स्पष्टम् अस्ति.
महोदय भवान् किञ्चित् वदन् आसीत्, वदतु।
पठामि वा
अनस्य सूत्रस्य प्रसङ्गे, अपि च अत्र अनयोः प्रक्रिया चिन्तनीया, तस्मात् आरभ्य किञ्चित् पठतु।
अनश्च तस्मात् पूर्वं मम चिन्तनं किञ्चित् वदामि। तत्र यदा वयं टच् प्रत्ययस्य आकारं योजयामश्चेत् टच् तदा तद्धित प्रत्ययेव परे नास्ति, तदा नष्टतिते इति कार्यं सूत्रं न कार्यं करोति। यदा परे टच् अस्ति तदेव तदा एव कार्यं भवितुम् अर्हति। मेलनतनन्तरं टच् भिन्न सज्जित प्रत्यये न भवितुम् अर्हति इत्यतः तत्र प्रथमम् अङ्गकार्यं करणीयं। नष्टजिते इति अङ्गकार्यम् अस्ति, अङ्गकार्ये कृत्वा एव वयं वर्णमेलनं कुर्मः। इतपि अस्ति नष्टजिते इति षष्ठमोऽध्याये अस्ति, चतुर्थपादे अङ्गस्य इति अधिकारे अस्ति इति कृत्वा तद् प्रथमं करणीयं, तदनन्तरमेव वर्णमेलनं।
वर्णमेलनं नास्ति अत्रापि अङ्गकार्यमेव अस्ति, रैट्? टच् प्रत्यय आयाति चेत् तत्रापि अङ्गकार्यमेव, सन्धिकार्यं न
अध्यात्मनि योग अस्तु भवतु। अनश्च इति अस्ति सूत्रं, यस्य अविभाव समासस्य अन्ते अन् इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति। अनः पञ्चमन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् अविभावे शरत्प्रवृत्तिभ्यः इत्यस्मात् सूत्रात् अविभावः इत्यस्य अनुवृत्तिः। अविभावः इति पदस्य विभक्तिपरिणामं कृत्वा अविभावात् इति भवति। राजशक्तिभ्यश्च टच् इत्यस्मात् सूत्रात् टच् इति पदस्य अनुवृत्तिः। समासान्ताः तद्धिताः अनयोः सूत्रयोः अधिकारः ज्ञात्राधिपदिकात् इत्यस्य अधिकारः। प्रत्ययः परश्च अनयोः सूत्रयोः अपि अधिकारः। अनुवृत्तिसहितसूत्रम् अनश्च अभिभावात् प्रातिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्ताः समासान्तः। अत्र अनश्च इति सूत्रं किं वदति, अण् इति यस्य अविभाव समासान्त अस्ति, अण् इति समासान्तपदम् अस्ति, अण् इति अनन्तम् अस्ति अविभावसमास पदं, तदा अण् इति अस्ति चेत् टच् इति समासान्तप्रत्ययः, समासान्तप्रत्ययः योजनीयः, अनन्तप्रत्यये अन्ते योजनीयः टच्। अत्र अणः अनश्च इति सूत्रे अनः इति पञ्चमन्तं च इति अव्ययम् अस्ति, इदानीं तथा विसर्गस्य स्थाने तत्र सकारः भूत्वा तत्र स्थुत्वम् अभवत् इत्यतः अनश्च इति अस्ति। अविभावे शरत्प्रवृत्तिभ्यः इत्यस्मात् सूत्रात् तत्र अविभाव इत्यस्य अनुवृत्ति सहितसूत्रमस्ति। अनश्च अविभावात् प्रातिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः। इदानीं तद्धितप्रत्ययः टच् प्रत्ययः प्रातिपदिकात् अविभावात् अनश्च अव्ययीभावात् तत्र विशेषणरूपेण अस्ति अनन्तस्य अव्ययीभाव अनन्तात् अव्ययीभावात् तत्र टच् प्रत्ययः योजनीयः इति अस्ति।
उत्तमं, सम्यक् प्रतिपादितं महोदय। तत्र सूत्रमस्ति राजाः सखिभ्यश्टच्, तत्र अहं दृष्टवती अतः वदामि, राजा अहन् सखिभ्यः इति त्रीणि पदानि सन्ति तत्र, राजा अहन् सखिभ्यः च तत्र टच् सखिभ्यश्टच् इति भवति, इत्युक्ते तत्र विसर्गस्य स्थाने प्रथमतया सकारः तदनन्तरं स्टुत्वं भूत्वा राजाः सखिभ्यश्टच् सखिभ्यः योगः टच् इति भवति तत्र. एतावता अत्र टच् प्रत्ययः तद्धितप्रत्ययः अस्ति. अपि च अनिवृत्तिसहितसूत्रं पश्यामश्चेत् अवगन्तुं शक्नुमः अत्र विशेषणविशेषभावः दृश्यते. अनन्तात् भवता सर्वम् उक्तमेव, अनन्तात् अव्ययीभावात् प्रातिपदिकात् इति अत्र विशेषणविशेषभावः अस्ति. टच् प्रत्ययः आदेशः भवति. अपि च प्रत्ययः परश्च इत्यनयोः अधिकारः अपि अस्ति. अपि च समासान्तप्रत्ययः तद्धिताधिकारे सन्ति. अत्र टच् प्रत्ययः समासान्तप्रत्ययः. अग्रिमे परिच्छेदे किमस्ति पठतु.
राजन् आत्मन् ब्रह्मन् अर्यमन् इत्येतानि पुल्लिङ्गप्रातिपदिकानि अनन्तानि च सन्ति. सीमन् दामन् इत्यादयः त्रीलिङ्गे अनन्तशब्दाः सन्ति. अव्ययीभावसमासे यदि एतानि अनन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि अनश्च इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति. परन्तु अनन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति चेत् तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति नपुंसकात् अन्यतरस्याम् इति सूत्रेण. एतत् सूत्रम् अग्रे पठिष्यामः. अस्तु, तत्र राजन् आत्मन् ब्रह्मन् इत्यादयः पुल्लिङ्गे अस्ति. श्रीलिङ्गे दामन् श्रीमन् इति पदानि अनन्ताः सन्ति. यदा अनन्ताः अविभावे भवन्ति पुल्लिङ्ग अथवा श्रीलिङ्गपदानि अविभावस्य अन्ते भवति तदा अनश्च इति सूत्रेण नित्यं वयं तच् प्रत्ययः योजनीयः विकल्पेन नपुंसकलिङ्गे नपुंसकात् अन्यतरस्याम् इति अग्रिमसूत्रात् तच् प्रत्ययः विकल्पेन योजयामः.
उत्तमम्. अत्र राजन् आत्मन् ब्रह्मन् आर्यमन् अत्र प्रथमाविभक्त्यन्तरूपाणि राजा आत्मा ब्रह्मा आर्यमा. अर्यमा इति पदं भगवद्गीतायाम् आयाति. तत्र भगवद्गीतायां विभूतियोगः नाम्ना एकः अध्यायः अस्ति. तत्र अनन्ताश्चास्मिनागानां वरुणो यादसामहं पितॄणाम् अर्यमा चास्मि यमः संयमतामहं. तत्र एकं सूत्रम् एकः श्लोकः अस्ति. अर्यमा इति प्रथमाविभक्ति एकवचनं पदमस्ति. अनन्त इति वदामश्चेत् अन् अन्ते यस्य तत् अन्नन्ता भवति. किन्तु तत्र नकारः द्विवारं नास्ति चेत् केवलम् अनन्त इति भवति. अनन्त इत्युक्ते तत्र नैतत्पुरुषसमासः अस्ति, न अन्तः. अन्नन्त इति वदामश्चेत् बहुव्रीहिसमासः भवति. अनन्त इति वदामश्चेत् नै तत्पुरुषसमासः भवति. तत्र तादृश अर्थभेदः अत्र अस्ति. अन्नन्त अनन्त. अपि च अत्र नपुंसकादन्यतरस्याम् इति सूत्रस्य प्रसक्तिः उत्तरपदम् अनन्तपदम् अपि च नपुंसकलिङ्गपदमस्ति चेदेव तस्य कार्यं भवति. सम्यक् प्रतिपादितं महोदय, धन्यवादः. सुमन् भगिनी भवती पठतु अग्रिमं सूत्रं.
भगिनी क्षम्यताम्, एकः प्रश्नः भगिनी. अनन्त अनन्त अपि अनन्त पुनः भेदः वदतु कृपया भगिनी.
अन् अन्ते यस्य सः अनन्त, तत्र बहुव्रीहिसमासः दृश्यते. अनन्त केवलम् अनन्त इति वदामश्चेत् न अन्तः, तत्र नै समासः. इत्युक्ते यथा सत्यम् असत्यं, धर्मः अधर्मः, तथा अनन्त इति पदं. किन्तु अत्र पदं तु अनन्त.
तत्र अन् अन्त अस्ति चेत् तत्र नुमागमः सन्धि कार्यं करोति, नकारस्य द्वित्वं भवति खलु.
द्रष्टव्यं तत्र कीदृशं कार्यं भवति इति.
नमुडागमः सन्धि
नमुडागमसन्धिः द्रष्टव्यं भगिनि, अहं न दृष्टवती. अग्रे पठतु.
अस्तु न अहं वदामि भेदः किम् इति भगिनी पृष्टवती खलु अतः अहं वदामि तत्र नमुडागमसन्धि कार्यं करोति अन् अन्त भवति चेत् तत्र नकारस्य द्वित्वं भवति पुनः एकं नकार आयाति अन्नन्तं भवति तत् तु यत् पदं यत्र अन् अन्ते अस्ति इति भवति
धन्यवादः इति प्रसङ्गे पठतु
अस्तु पठामि नस्तद्धिते तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य शब्दस्य तिसंज्ञकस्य लोपः भवति न षष्ट्यन्तं तद्धिते सप्तम्यन्तं द्विपदम् इदं सूत्रम् तेः इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः अल्लोपोपोनः इत्यस्मात् सूत्रात् अल्लोपो
भगिनि अत्र अल्लोपोनः तत्र काठिन्यं किमपि नास्ति अल्लोपोनः तत्र अत् अत् लोपः अत् अत् लोपः अनः इति पदद्वयमस्ति अत् लोपः अनः तत्र वयं पठितवन्तः सन्धिवर्गे तोर्लि इति एकं सूत्रमस्ति तोर्लि इति सूत्रेण तत्र लकारः द्विवारम् आयाति तत्र परसवर्णादेशः भवति इति कृत्वा अल्लोपोनः वदतु
अल्लोपोनः इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः भस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति भस्य नः तद्धिते तेः लोपः इदानीं सूत्रं वदति तद्धितप्रत्यय परे अस्ति चेत् नकारान्तस्य पदम् नकारान्तपदम् अस्ति अपि च तत् नकारान्तपदं भसंज्ञकय भसंज्ञकपदम् अस्ति चेत् तत्र टि भागः लोपः भवति इति
भागस्य लोपः भवति अत्र पूर्वस्मिन् परिच्छेदे राजाः सखिभ्यश्टच् इति एकं सूत्रं दृष्टवन्तः तस्मात् सूत्रात् एव टच् इति पदस्य अनुवृत्तिः भवति इति वयं पठितवन्तः कर्म साधारणतया वयं कर्मधारे समासप्रसङ्गे महाराजः इति पदं निर्मातुमिच्छामश्चेत् महाराजः इत्यस्मिन् पदे कर्मधारे समासः अस्ति किमि कथमित्युक्ते महाञ्च असौ राजा च इति तत्र भवति तस्मिन् सन्दर्भे महाराजः इति पदनिर्माणप्रसङ्गे अहं चिन्तयामि तत्रापि टच् प्रत्ययः विधीयते अनेन सूत्रेण एतावता नस्तद्धिते इति सूत्रेण भसंज्ञकशब्दस्य टीसंज्ञालो टीसंज्ञकस्य लोपः भवति इत्युक्ते अत्र आहत्य भसंज्ञा नामका टीसंज्ञा इत्युक्ते किम् एतत् अस्माभिः अवगन्तव्यं तदानीम् एव तत्र टीसंज्ञा लोपः नाम इत्युक्ते किं भवति तत्र कार्यम् इति अवगन्तुं शक्नुमः प्रथमतया भसंज्ञा नामका इति अवगन्तव्यं तदर्थम् एकम् अन्यत् सूत्रम् अपि अपेक्षितम् किमर्थमित्युक्ते भसंज्ञा का तद् अवगन्तुं यचिभम् इति सूत्रं पठामः किन्तु यचिभम् इत्यस्मिन् सूत्रे एकं विशिष्टं पदमस्ति सर्वनामस्थानसंज्ञकप्रत्ययान् विहाय इति पदमस्ति सर्वनामस्थानसंज्ञकप्रत्ययान् विहाय इति यचिभं सूत्रे अस्ति तदर्थं सर्वनामस्थानसंज्ञा इत्युक्ते किम् इति अवगन्तव्यं सर्वनामस्थानसंज्ञायाः प्रसङ्गे सुडनपुंसकस्य इति एकं सूत्रम् अस्ति, तत् सूत्रम् अधुना पठेम। विनय महोदय भवान् पठतु।
सुडनपुंसकस्य सुट् प्रत्यहारे सुवदीनां पञ्चानां प्रत्ययानां सर्वनाम स्थानसंज्ञा भवति, परन्तु नपुंसकलिङ्गेन सुट् प्रत्यहारे सु औ जस् अम् आट् पञ्च प्रत्ययः अन्तर्भूतः न नपुंसकम् अनपुंसकं न तत्पुरुषः तस्य अनु अन पुंसकस्य सुट् प्रथमान्तम् अनुपुंसकस्य षष्ठ्यन्तं द्विपदम् इदं सूत्रम्। श्री सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इति अस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं सुच् सर्वनामस्थानम् अनपुंसकस्य। भगिनी अहं एक अन्यत् पुस्तकं दृष्टवान्, तत्र पञ्च सु औ अस् अम् औट् सर्वनामस्थानम् इति उच्यते। तदनन्तरम् अस् आट् भ्यां भिस् ए भ्यां भ्यस् इत्यादि ट्वेण्टि एकविंशति मैनस् पञ्च षोडश प्रत्ययः सर्वनां स्थानं न भवन्ति। परन्तु मम प्रश्नः अस्ति, अत्र महत्त्वं कथं अवगमनार्थं शक्नोमि? अहं जानामि सर्वनां स्थानम् अर्थः, परन्तु अत्र सुड् नपुंसकस्य अर्थः अहं जानामि, अतः स्त्रीलिङ्ग पुल्लिङ्ग योज प्रयुक्तः, परन्तु नपुंसकस्य नास्ति। परन्तु तदनन्तरं सर्वनां स्थानं महत्त्वम् अत्र समास अवैभावसमाससम्बन्धे अहं यदि भवती किञ्चित् वदामि।
किञ्चित् तस्य प्रसक्तिः किमर्थम् इति प्रश्नः वा? षोडनपुंसकस्य इति सूत्रस्य प्रसक्तिः अत्र अत्र किमर्थम्? अत्र किमर्थम् इत्युक्ते, तत्र नस्तद्धिते इति सूत्रेण टीसंज्ञा टीसंज्ञकस्य लोपः भवति इति उक्तमस्ति, किन्तु तत्र तद्धितप्रत्यये परे टच् इति समासान्तप्रत्ययः अस्ति, अपि च आत्मन् इति नकारान्तं पदमस्ति, अपि च भसंज्ञकशब्दस्य टी टीसंज्ञा लोपः भवति इति उक्तमस्ति सूत्रे। तदर्थं भसंज्ञा नाम का इति अवगन्तव्यं। भसंज्ञायाः अवगमनार्थं यचिभम् इति एकं संज्ञासूत्रमस्ति। यचिभं सूत्रे किमुक्तमस्ति? सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य इति एकं वाक्यं लिखितमस्ति। सर्वनामस्थानसंज्ञा का इति अपि अवगन्तव्यम्। अत्र पश्यन्तु, तिस्रः संज्ञाः उक्ताः, भसंज्ञा टीसंज्ञा सर्वनामस्थानसंज्ञा। अत्र प्रथमतया सुडनपुंसकस्य इति सूत्रम् अवगन्तव्यं। किमर्थमित्युक्ते, अत्र सुट् इति यथा भवता उक्तं, सुट् इति एकः प्रत्याहारः। सुट् प्रत्याहारे के के प्रत्ययाः सन्ति? सु औ जस् अम् औट् औट् पर्यन्तम्, इत्युक्ते द्वितीयाविभक्ति द्विवचनपर्यन्तं पञ्चप्रत्ययाः सन्ति। एतेषां पञ्चानां प्रत्ययानां कृते एका संज्ञा दत्ता. संज्ञा का इत्युक्ते सर्वनामस्थानसंज्ञा इति संज्ञा दत्ता केवलं स्त्रीलिङ्गे अपि च पुंलिङ्गे एव. इत्युक्ते स्त्रीलिङ्गे द्वितीयाविभक्ति द्विवचनपर्यन्तं ये सुप्रत्ययाः सन्ति, पञ्चप्रत्ययाः सन्ति, तेषां सर्वनामस्थानसंज्ञा भवति. तथा एव पुंलिङ्गे अथवा स्त्रीलिङ्गे अपि तथा भवति. किन्तु नपुंसकलिङ्गे अनेन सूत्रेण सर्वनामस्थानसंज्ञा न दीयते. इत्युक्ते सुडनपुंसकस्य इति सूत्रस्य प्रसक्तिः केवलं पुंलिङ्गे स्त्रीलिङ्गे एव. किन्तु नपुंसकलिङ्गे सर्वनामसंज्ञायाः अवगमनार्थम् एकं भिन्नं सूत्रमस्ति, शी सर्वनामस्थानम् इति एतत् सूत्रमस्ति. शी सर्वनामस्थानम् इति सूत्रेण नपुंसकलिङ्गे प्रथमाविभक्ति बहुवचनप्रत्ययः जस् प्रत्ययः, द्वितीयाविभक्ति बहुवचनप्रत्ययः शस् प्रत्ययः, एतयोः द्वयोः सर्वनामस्थानसंज्ञा दीयते शी सर्वनामस्थानम् इति सूत्रेण. एतावता सुडनपुंसकस्य इति सूत्रेण एतेषां पञ्चानां प्रत्ययानां एव पुंलिङ्गे स्त्रीलिङ्गे सर्वनामस्थानसंज्ञा दीयते इति प्रथमः विषयः. तदनन्तरं तेषां सर्वनामस्थानसंज्ञा भवति चेत् किं भवति अत्र भसंज्ञा नाम का इति अवगन्तव्यं. तदर्थं यचिभं सूत्रम् एकवारं पठतु महोदय.
अध्याय चतुर्थपादः अष्टादश संख्या सूत्रं सर्वनामस्थानसंज्ञक प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयः च एषु कश्चन परः अस्ति चेत् पूर्वतन शब्दस्वरूपस्य भसंज्ञा भवति. यच अच च यच समाहारद्वन्द्वः तस्मिन् यचि यचि सप्तयन्तं भम प्रथमान्तं द्विपदमिदं सूत्रम् स्वादि स्वादिषु सर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः. स्वादिषु सर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यचि भम. इदानीम् असर्वनामस्थाने सर्वनामस्थाने नास्ति. अतः
अत्र भसंज्ञा नाम का इति अवगन्तुं यचिभम् इति सूत्रस्य पठनम् आवश्यकम्. अत्र यचिभं सूत्रं किं वदति तत्र भसंज्ञा नाम का इति प्रतिपादयतु महोदय.
भसंज्ञक अर्थः
नो चेत् अत्र गीताञ्जलिभगिनी भवती प्रतिपादयतु. अत्र यचिभं सूत्रम् एकं संज्ञासूत्रम्. अत्र यचिभम् इति सूत्रेण किम् अवगम्यते अस्य पठनेन किं भवति?
अहं प्रयत्नं करोमि एव भगिनी. यचिभम् इति भसंज्ञा दत्तं. भसंज्ञा किम् इति वदति. भसंज्ञा एकम् अङ्गम् अङ्गस्य नाम अङ्गस्य संज्ञा अस्ति इति वदति. सम्यक् न अवगच्छामि भगिनि.
अत्र चिन्ता मास्तु, अत्र यजिभम् इति सूत्रेण
भगिनि अहं प्रयत्नं कर्तुं शक्नोमि.
वदतु भगिनि, वदतु.
अस्तु, प्रयत्नं करोमि. यचिभं सूत्रं वदति सुप्रत्ययात् कप् प्रत्ययपर्यन्तं. कप् प्रत्यय किमपि प्रत्यय अस्ति. तेषां प्रत्ययानां ये प्रत्ययाः यकार आदयः अस्ति नो चेत् अजादयः सन्ति, ते प्रत्यय कुत्रचित् कस्मिंश्चित् पदस्य पर भवति चेत् तत् पदम् अतत् अङ्गं भ संज्ञकः भवति इति. एकमपि निमित्तम् अस्ति सर्वस्थान प्रत्यय विहाय. So starting with su all the way to kap, avoiding the sarvanama sthana sanya pratyah, anyone that starts with yakara or ach varnah, if that is comes after an angam, that angam is called bha sanyakah angam.
उत्तमम्. एतावता अत्र बहवः विषयाः सन्ति. भसंज्ञा कदा भवति, अङ्गस्य भसंज्ञा कदा भवति इति अस्मिन् परिच्छेदे दत्तमस्ति. अङ्गस्य अङ्गकार्यम्, अङ्गस्य भसंज्ञा कदा भवति इत्युक्ते अत्र सुप्रत्यय, वयं जानीमः एकविंशति सुप्रत्ययाः सन्ति. तत्र प्रथमप्रत्ययः सुप्रत्ययः अस्ति. सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं केचन प्रत्ययाः सन्ति. तेषु केचन यकारादयः सन्ति, केचन अजादयः सन्ति. इत्युक्ते सः तेषु अन्यतमप्रत्ययः, यः प्रत्ययः यकारादिः वा अजादिः वा अस्ति चेत्. किन्तु अत्र एकम् अन्यः विषयः अस्ति, सर्वनामस्थानसंज्ञक पञ्चप्रत्ययान् विहाय. इत्युक्ते सर्वनामस्थानसंज्ञक प्रत्ययान् कृत्वा अन्ये प्रत्ययाः ये यकारादयः सन्ति अथवा अजादयः सन्ति, तादृशप्रत्ययः परः अस्ति चेत् तत्र पूर्वतन अङ्गस्य भसंज्ञा भवति. इत्युक्ते अत्र अध्यात्मन् इत्यस्मिन् पदे भसंज्ञक अङ्गम् अस्ति वा इति द्रष्टव्यं, भसंज्ञक अङ्गम् अस्ति वा. सुमन् भगिनी भवती एव प्रतिपादयतु, तत्र भसंज्ञक अङ्गम् अस्ति वा.
एकनिमिषम् अस्तु, इदानीं पश्यामः. तत्र क्षम्यताम्, उपरि गच्छामः. अध्यात्मन् योग अ अस्ति. तत्र अ अस्ति प्रत्यय, तत्तु अजादि एव अस्ति.
तदेव इत्युक्ते अत्र अस्य अध्यात्मन् इति शब्दस्वरूपस्य भसंज्ञा, अङ्गस्य भसंज्ञा अस्ति एव. कथम् इत्युक्ते तत्र तस्य अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः अनुबन्धलोपानन्तरं तत्र टच् इति प्रत्ययस्य अनुबन्धलोपानन्तरं तत्र अकारः एव अवशिष्यते. तदर्थमेव सः टच् प्रत्ययः अजादिप्रत्ययः अस्ति. अपि च
अहं न जानामि तत्तु इस् इट् बिट्वीन् सू एण्ड् कप् तत्तु अहं न जानामि
इत्युक्ते तत्र केचन प्रत्ययाः सन्ति इति अवगन्तव्यं तेषु अत्र तु केवलं यकारादयः इत्यस्य प्रसक्तिः नास्ति केवलम् अत्र अजादिप्रत्ययः एव अस्ति उत्तमम्
अस्तु इत्युक्ते अजादि अस्ति वयं प्रस्यूम् कर्तुं शक्नुमः दट् इस् बिट्वीन् सू एण्ड् कप् सू पश्चात् अस्ति कप् पूर्वम् अस्ति अतः इदानीं तु अध्यात्मन् अङ्गस्य भसंज्ञा भवति
परन्तु अङ्गस्य भसंज्ञा सर्वदा न भवति अङ्गस्य पदसंज्ञा अपि भवति यदि वयं भ्याम् प्रत्ययः सम्बन्धे वदामि सर्वदा भसंज्ञा न भवति
सर्वदा भसंज्ञा न भवति इत्युक्ते कथं केवलम् अजादिप्रत्ययः अस्ति चेदेव तत्र भवति तत्र वयं पूर्वस्मिन् करपत्रे वयं दृष्टवन्तः सानुबन्धप्रत्ययाः अपि च निरनुबन्धप्रत्ययाः तत्र एकं करपत्रमस्ति समासपरिचयः इत्यस्मिन् करपत्रे सानुबन्धप्रत्ययेभ्यः निरनुबन्धप्रत्ययान् वयं साधितवन्तः तत्र अनुबन्धलोपानन्तरं केचन प्रत्ययाः अजादिप्रत्ययाः सन्ति तत्र अस्ति अजादिप्रत्ययः अम् इति तत्र आ इति अजादिप्रत्ययः तृतीयाविभक्ति एकवचनप्रत्ययः आ अस्ति पञ्चमीविभक्त्याम् अपि अस् अस्ति षष्टिविभक्त्याम् अस् अस्ति तथा अनुबन्धलोपानन्तरं हलो अनुबन्धलोपानन्तरं तत्र केचन प्रत्ययाः अजादिप्रत्ययाः सन्ति अधुना एतावत्पर्यन्तं वयं भसंज्ञानामका इति अवगतवन्तः तस्मिन् प्रसङ्गे एव सर्वनामस्थानसंज्ञा इत्यस्मिन् विषये अपि सुडनपुंसकस्य इति सूत्रं पठितवन्तः अधुना नस्तद्धिते इति सूत्रेण भसंज्ञकशब्दस्य टीसंज्ञालोपः टीसंज्ञकस्य लोपः भवति इति अत्र दत्तमस्ति अधुना टीसंज्ञानामक इति अवगन्तव्यं पुष्पा भगिनी भवती पठतु
पठितुं न शक्नोमि शृणोमि भगिनि
पठितुं न शक्नोति वा
भगिनी एकः प्रश्नः भगिनी क्षम्यतां किञ्चित् स्पष्टीकरणार्थम् एव यचिभम् इति तु अवगतं भगिनी धन्यवादः किन्तु ये प्रत्ययाः सु आरम्भतः कुप् पर्यन्तं सन्ति अजादि अपि च यादौ अस्ति चेत् सर्वनाम विहाय ते सर्वे तु सुवन्त नास्ति न भगिनी
अत्र मया किम् अवगतम् इत्युक्ते यकारादिप्रत्ययः परः न भवति केवलम् अजादिप्रत्ययः एव परः भवति कथं ज्ञातुं शक्नुमः इत्युक्ते वयम् एकं करपत्रं पूर्वं पठितवन्तः तत्र सानुबन्धप्रत्ययेभ्यः निरनुबन्धप्रत्ययान् साधितवन्तः तत्र अहं पश्यन्ती अस्मि तत्र बहवः प्रत्ययाः अजादिप्रत्ययाः सन्ति अत्र केवलम् अजादिप्रत्ययस्य
अजादि अस्ति चेत् किमर्थं यचि अत्र अस्ति न जानामि
यचि यचि इति तत्र सूत्रं पश्यामश्चेत् किं वदति यचिभं तत्र यच् च अच् च तत्र समाहारद्वन्द्वसमासः अस्ति या च इत्युक्ते यकारादिप्रत्ययः अच् इत्युक्ते अजादिप्रत्ययः तत्र द्वन्द्वसमासः अस्ति यच्
इत्युक्ते य आदौ य अस्ति चेत् अथवा अजादिप्रत्ययः अस्ति चेत् न भगिनि
यकारादिप्रत्ययः अस्ति चेत् अथवा अजादिप्रत्ययः अस्ति चेत् इत्युक्ते आदौ यकारः अस्ति वा नो चेत् अच् वर्णः अस्ति वा इति.
किन्तु सर्वे सुबन्त अस्ति वा न वा इति तु अत्र विषय एव नास्ति न भगिनि.
परे कीदृशप्रत्ययः अस्ति, प्रत्ययस्य आदिमवर्णः कः इति द्रष्टव्यम्.
अस्तु भगिनि, अवगतम्.
प्रत्ययस्य क्रमः कुत्र अस्ति भगिनि? सु आरभ्य कप् कुप् पर्यन्तम् अस्ति खलु, तत्र क्रमः कुत्र प्राप्तुं शक्नुमः?
अत्र के के प्रत्ययाः सन्ति तत्र कोऽपि वदतु अत्र कथं जानीमः सुप्रत्ययात्
सूत्र ये ये सूत्राः चतुर्थ अध्यायः अपि पञ्चम अध्यायः सन्ति सूत्रे प्रत्ययाः ऐ मीन् पदः प्रथमा विभक्तिः अस्ति चेत् वि नो इट्स् अ प्रत्यय सो थ्रू दिस् all throughout there are pratyayas. I don't know to say.
Chukte bahavah santi iti bhati.
Kap iti at the end. Yeah. Ura prabhritya bhyaha. Kap 5-4-151. Yeah.
5-4-151. So this includes only the subanta pratyayaha or includes everything?
Everything. Everything except the sut.
Sut. Tatra sut pratyaharasya nirmanam kimartham kurutam iti asmin prasange bhagini kinchit uktavati. Sut pratyaharaha iti kimartham kurutam tatra sut pratyaharasya nirmanardham eva dvitiya vibhaktau jivachane out. औट् इति प्रत्ययस्य तत्र टकारः इति संज्ञकवर्णः अस्ति. तत्र सः टकारः इति संज्ञकवर्णः किमर्थं योजितमस्ति इत्युक्ते केवलं सुट् प्रत्याहारनिर्माणार्थम् एव द्वितीयाविभक्त्यां द्विवचने औट् इति लिखितमस्ति इति उक्तवती भगिनी. अपि च अत्र नस्तद्धिते इति सूत्रस्य प्रसङ्गे टीसंज्ञालोपः भवति इति दत्तम्. अधुना टी संज्ञा नाम का इति अवगन्तव्यं. तत्र पूर्णं क्षम्यताम् अरविन्दमहोदय, भवान् पठतु.
भगिनी एकनिमिषं, भवती उक्तवती पूर्वस्मिन् करपत्रे किमपि आसीत् इति, किं भगिनी तत्र
सुप्रत्ययाः सानुबन्धसुप्रत्ययाः सन्ति, अपि च सानुबन्धप्रत्ययेभ्यः इतिसंज्ञकवर्णानां लोपानन्तरं निरनुबन्धप्रत्ययान् इत्युक्ते अनुबन्धवर्णाः न सन्ति इत्युक्ते तत्र अन्ते स्थितस्य इतिसंज्ञा लोपं कृत्वा निरनुबन्धप्रत्ययान् साधितवन्तः वयम्.
कुत्र अस्ति भगिनि
समासपरिचयः? पूर्वं करपत्रं, पूर्वस्मिन् करपत्रे.
आदौ वा अन्ते वा?
अत्र समासपरिचयः इति प्रथमं करपत्रमस्ति,
पश्यामि, तदेव पश्यामि,
तत्र अस्ति. अनन्तरम् अत्र अरविन्दमहोदय, भवान् पठतु.
आं भगिनि. अचोन्द्यादिप्ति अचां मध्ये यः अन्त्यः सः आदिः यस्य तत् ति संज्ञकः स्यात्. अन्ते भवः अन्त्या, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुभिः. अचः षट्यन्तम्, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम्. अतः अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. आशयाः बहुवचनं निर्धारणसप्तमी, बहुषु एकम्, जात्याख्यायामेकस्मिन् बहुवचनम् अन्यतरस्यां, जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां सूत्रं स्वयं सम्पूर्णं अचः अन्त्यादि टि तत् एकं संज्ञासूत्रमस्ति टिसंज्ञा इति उक्ते कः इति चिन्तयति चेत् अचां मध्ये यः अन्त्यः अच् वर्णानां मध्ये ये अन्तः स आदि यस्य स आदि
अत्र अचां मध्ये अत्र पश्यतु महोदय अचाम् अचाम् इति षष्ठीविभक्ति बहुवचनरूपम् इत्युक्ते अच् अच् इति एकं पदम् अस्ति अच् इति प्रत्याहारः अस्ति अच् इति प्रथमाविभक्ति एकवचनरूपम् अस्ति चेत् अचाम् इत्युक्ते अच् वर्णानां मध्ये अच् इत्युक्ते यदि एकं पदं स्वीकुर्मः चेत् तत्र बहवः अच् वर्णाः भवितुमर्हन्ति रामम् इति स्वीकुर्मः चेत् तत्र अच्वर्णद्वयम् अस्ति अत्र रा तत्र दीर्घ आकारः अस्ति मम् तत्र ह्रस्व आकारः अस्ति इत्युक्ते अच्वर्णद्वयम् अस्ति रामम् इत्यस्मिन् पदे आहत्य टीसंज्ञा नाम का इत्युक्ते यस्मिन् कस्मिन्नपि पदे बहवः अच्वर्णाः भवन्ति चेत् अन्तिम अच्वर्णं स्वीकृत्य तस्मात् आरभ्य अन्तपर्यन्तं तस्मिन् शब्दस्वरूपे ये ये वर्णाः सन्ति तेषां सर्वं मेलनं कृत्वा वदामश्चेत् स एव टीसंज्ञा इति वदामः रामम् इत्यस्मिन् पदे अन्तिम अचुवर्णः ह्रस्व अकारः ह्रस्व अकारात् आरभ्य अन्तपर्यन्तं यः भागः अस्ति तस्य नाम टीभागः तत्र अम् इति भागः रामम् इत्यस्मिन् पदे टि भागः भवति अत्र अचां मध्ये यः अन्तिम अचुवर्णः अस्ति सः आदिः भवति यस्य शब्दस्वरूपस्य तत्र यस्य शब्दस्वरूपस्य सर्वेषाम् अचुवर्णानां मध्ये अन्तिम अचुवर्णात् आरभ्य यः भागः अस्ति तत् सर्वं मिलित्वा टीसंज्ञा भवति इति विषयः अत्र अन्ते भवः अन्त्यः आदिर्यस्य सः अन्त्यादिः अत्रापि बहुव्रीहिसमासः अस्ति एतावता अत्र अचः अन्त्यादि टि इति अनुवृत्तिसहितसूत्रमस्ति इतोपि उदाहरणं
अन्तिम अच् टि संज्ञा इति सूत्रात् दृश्यते किन्तु तत्पर्यन्तं किमपि अस्ति तदपि योजयनं करणीयम् इति कुत्र दृश्यते अचां मध्ये यः अन्त्यः तस्य अर्थं तु जानीमः किन्तु तदनन्तरं के वर्णा अस्ति तदपि टिसंज्ञः भवति इति कथं जानीमः
अत्र किं लिखितमस्ति अचां मध्ये यः अन्त्यः अस्ति सः आदिः यस्य तत् यस्य शब्दस्वरूपस्य यस्मिन् शब्दस्वरूपे बहवः अचुवर्णाः सन्ति तेषु अचुवर्णेषु यः अन्तिम अचुवर्णः अस्ति तस्मात् अन्तिम अचुवर्णात् आरभ्य अन्तपर्यन्तं यः भागः अस्ति तत् सर्वं मिलित्वा टीसंज्ञा भवति उदाहरणार्थम् अन्यानि पदानि एकवारं परिशीलयामः अहं रामम् इति पदम् उक्तवती रामम् इत्यस्मिन् पदे अन्तिम अचुवर्णः कः अम् अम् इत्यस्मिन् एकः अकारः अस्ति तत्र सः अकारः एव अन्तिम अकारः सः अन्तिम अकारात् आरभ्य अन्तपर्यन्तं यः भागः अस्ति तत् सर्वं मिलित्वा टीसंज्ञा भवति इति कृत्वा रामम् इत्यस्मिन् पदे अम् इति टीसंज्ञा अम् इति भागस्य टीसंज्ञा भवति कोऽपि अन्यत् उदाहरणं वदति वा अवगमनार्थम्
भगिनी आत्मन् अस्ति आत्मन् आत्मन् आ सहलन्त् तर्हि मोहलन्त् योग अ अन्तः न अत्र अन्तः अ अस्ति पूर्वम् अतः तिसंज्ञा अन् सन्दर्भे भवति अन् तिसंज्ञा भवति अतः आत्मन् तिसंज्ञा अन् भवति
अन् भवति इत्युक्ते एतावत् पुनः परिशीलयामश्चेत् अत्र परिशीलनीयं तिसंज्ञकभागः कः अत्र आत्मन् इति पदं आत्मन् इति स्वीकुर्मः चेत् तत्र प्रथमः दीर्घ आकारः अस्ति तदनन्तरं प्रथमदीर्घ आकारः एकः अचुवर्णः तदनन्तरं मन् इति वदामश्चेत् तत्र तकारः मकारः अकारः अस्ति तत्र सः अकारः द्वितीय अकारः एव अन्तिम अकारः सः अन्तिम अकारः एव तिसंज्ञकभागे प्रथमभागः भवति इत्युक्ते अन्तिम अचुवर्णात् आरभ्य तस्मिन् शब्दस्वरूपे ये ये वर्णाः अन्ये वर्णाः सन्ति तेषां सर्वेषां मेलनं कृत्वा कुर्मः चेत् तत्र तिसंज्ञा भवति यथा अध्यात्मन् इत्यस्मिन् पदे अन् इति भागः टि भागः
भगिनी विद्यार्थिन् अस्ति चेत् तत्र ई इकार अन्तिम इकार तु अन्तिम स्वरः अस्ति तत्र इन् इति टि भाग किन्तु छात्र अस्ति चेत् तत्र अकार एव टि भाग
अकार एव टि भागः यथा भगिनी उक्तवती अत्र विद्यार्थी इति पदं पुंलिङ्गपदम् अस्ति तत्पदम् इन्नन्तपदं कथम् आत्मा इति पदम् अन्नन्तपदं किन्तु विद्यार्थी इति तत्र प्रातिपदिकमस्ति विद्यार्थिन् तत्र इन्नन्तपदं यथा करी करी इति पदम् अस्ति एलिफेण्ट् इत्यस्मिन् अर्थे तत्रापि करिन् करिन् इति भवति तत्र इन्नन्तपदमस्ति इति कृत्वा तत्र टि भागः कः इति पश्यामश्चेत् इन् इन् इति टि भागः अस्ति इत्युक्ते अन्तिम अन्तिम अचुवर्णः करिन् इत्यस्मिन् पदे अथवा विद्यार्थिन् इत्यस्मिन् पदे अन्तिम अचुवर्णः इकारः तदर्थम् अन्तिम अचुवर्णात् आरभ्य सर्वं टि भागः भवति करिन् इत्यस्मिन् पदे विद्यार्थिन् इत्यस्मिन् इन् इति टि भागः भवति तस्य लोपः न स्तद्धिते इति सूत्रेण भवति इति विषयः उपरि सरेम एकवारं वदतु
भगिनि
वदतु महोदय
इतरे अत्र टि संज्ञक अस्ति अन्तिम अच् पर्यन्त अन्तिम अच् आरभ्य के वर्ण तत् परम् अस्ति चेत् तस्य पूर्णस्य टि संज्ञा भवति तत् प्रत्ययस्य तदनन्तरं प्रत्यया यकार या अच् अस्ति चेत् तेषां भं बा संज्ञा अपि अस्ति
प्रत्ययस्य नास्ति अङ्गस्य
न प्रत्ययस्य पूर्वं यदि टि संज्ञा अस्ति यत् तत् प्रत्यय ते प्रत्यय ये यकार ए अथवा अच् अस्ति चेत् तत् ते प्रत्ययानां पूर्वं यत् टि संज्ञा अस्ति तस्य टि संज्ञा अपि अस्ति बा संज्ञा अपि अस्ति
न अत्र महोदय अङ्गस्य भसंज्ञा अस्ति
पूर्ण अङ्गस्य भासंज्ञा भवति वा यस् किन्तु सिर्फ् टेः भासंज्ञा भवति किल
अङ्गस्य भासंज्ञा
ओके
अत्र अङ्गात् परे एव प्रत्ययः भवति अत्र अङ्गस्य भसंज्ञा भवति अध्यात्मन् इत्यस्य भसंज्ञा भवति अनन्तरम् अत्र टि भागः नाम किम् इति अत्र अचोन्त्याद् टि इति सूत्रेण उक्तमस्ति तस्मात् विधिसूत्रं किम् इत्युक्ते नस्तद्धिते नस्तद्धिते इति सूत्रेण टि भागस्य लोपः भवति अचोन्त्यादि टि इति टीसंज्ञायाः प्रसङ्गे वदति संज्ञासूत्रम् अचोन्त्यादिति इति. उत्तमं. भवान् एव पठतु महोदय, उपरि किम् अस्ति?
प्रतिशब्दस्य टि भागः भवति, किन्तु भसंज्ञकः टि अङ्गम् अस्ति चेत् टि भागस्य लोपः भवति. सो एव्रि वर्ड् विल् हेव् अ टि भाग.
अध्यात्मन् योग आ इदानीं नस्तद्दिदे इति सूत्रेण तद्दिद तृतीये परे नकारान्तस्य भसंज्ञकस्य शब्दस्य टीसंज्ञकस्य लोपः भवति नस्तत्तिदे इति सूत्रेण. अन् इति टि भागस्य लोपानन्तरम् अध्यात्मयोग आ अध्यात्मा इति भवति. अध्यात्मा इदानीं लिङ्गस्य निर्णय क्रियते अव्ययीभावश्च इत्यनेन अव्ययीभावस् समासस्य लिङ्गं भवति नपुंसकलिङ्गम्. अतः अध्यात्मः इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्.
अत्र पूर्वस्मिन् परिच्छेदे यद् लिखितमस्ति तदेव बहु मुख्यमस्ति. तदर्थम् एकवारं पुनः भवतः अवगमनं किम् इति तस्मिन् प्रसङ्गे वदतु. नस्तद्धिते कार्यं कथं भवति एकवारं पुनः वदतु.
नस्तत्तिदे सूत्रं नः अतत्तिदे. अत्र अध्यात्मन् योग आ अस्ति यचीबम् इति संज्ञा भूत्वा तस्य पूर्वम् अध्यात्मन् इति पूर्वं पूर्णपदम् अस्ति भा. तदनन्तरं टि इति अचोन्द्यादि टि इति सूत्रेण अन्तिम अकार एवं नकारस्य टि संज्ञा भूत्वा तस्य लोभा भवति. तदनन्तरम् अध्यात्म इति अवशिष्यते. तदनन्तरम् अकारयोजनेन अध्यात्मा इति रूपं भवति.
इत्युक्ते अत्र एतावत्पर्यन्तम् एते अस्य परिच्छेदस्य अवगमनार्थं त्रीणि सूत्राणि वयं पठितवन्तः. सुडनपुंसकस्य अपि च अचोन्त्यादिति यचिभम् एतानि सूत्राणि वयं पठितवन्तः. अत्र तद्धित इति एकं पदम् अस्ति. तत्र तद्धित इति पदं पदस्य प्रसङ्गे अहं पठितवती, तदर्थं वदामि. तत् योगः हित इति भवति. तद् योगः हित तद्धित इति पदं भवति. तत्र झयोः अन्यतरस्याम् इति एकं सूत्रमस्ति. तेन सूत्रेण पूर्वसवर्णादेशः भवति. तत्र पूर्वसवर्णसन्धिः भवति. तद् योगः हितं तद्धितम् इति भवति. तत्र सूत्रं झयोः अन्यतरस्यां तस्य हितम् इति अर्थः. किन्तु तद्धितप्रत्ययाः प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन तद्धितान्तं पदं सिद्ध्यति इति विषयः. अत्र तद्धित इति अवगन्तुम् अस्मिन् परिच्छेदे सम्पूर्णतया इति एकं पदम् अहं दृष्टवती. सम्पूर्णतया इति पदं दृष्टवती. तत्पदं तद्धितप्रत्ययान्तपदं. तत्र सम्पूर्णता इति तत्र तल् इति एकः तद्धितप्रत्ययः अस्ति. एतावता अत्र तद्धितप्रत्यये परे एव अत्र बहवः निकषाः सन्ति इति विषयः. निमित्तानि सर्वाणि पूरितानि इति कृत्वा अत्र अन् इति टि भागस्य लोपः भूत्वा अध्यात्म तत्र अन्तिम हल् वर्णः श्रूयते. तदनन्तरम् अकारस्य योजनेन वर्णमेलनेन अध्यात्म इति अन्ते अकारसहितं रूपं दृश्यते अत्र अध्यात्म इति. वदतु महोदय.
अध्यात्म इदानीं लिङ्गस्य निर्णयः क्रियते अव्ययीभावश्च इति अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्. अतः अध्यात्म इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्. अध्यात्मयोगः सु अध्यात्मा इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. अधुना सुप्रत्ययस्य उत्पत्ति न्याप्रातिपदिकात् एवं सौजस् इति दीर्घसूत्रभ्यां भवति. अध्यात्मा योगः सु अव्ययताप्सुभः इति सूत्रेण प्रत्ययमानः सुब्लुक् न अव्ययीभावात् अतोन्त्वा पञ्चम्या इति सूत्रेण निषिध्यते. न अव्ययीभावात् अतोन्त्वात् पञ्चम्या इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् परे सुप्रत्ययस्य लुक् न भवति, अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय. पञ्चमी विभक्तौ अम् आदेशः न भवति तत्र यथा सामान्यसुप्रत्ययप्रक्रियः भूत्वा रूपं भवति अध्यात्मात्. अपरासु विभक्तिषु सुप् लुक् न भवति, अपि तु सुप् स्थाने अम् आदेशः भवति. अत्र लिङ्गनिर्णयं नपुंसकलिङ्गम् अव्ययात् भावश्च इति सूत्रप्रसक्तिः अस्ति कृत्वा नपुंसकलिङ्गं विधीयते. नपुंसकलिङ्गं भवति कृत्वा सुप्रत्ययस्य विद्यानां न्याप्रातिपदिकात् इति प्रातिपदिकसंज्ञा भूत्वा स्वौजस् इति सूत्रेण लिङ्गप्रत्ययानां योजनं भवति. किन्तु न अव्ययात् आप्सु न अव्ययभावातां तु पञ्चम्या इति सूत्रेण आम् इति प्रत्यय सर्वासु विभक्तिषु विधीयते किन्तु पञ्चमी विभक्ति विहाय. तस्य कारणेन पञ्चमी विभक्ति यथा सुप्रत्ययस्य योजनेन अध्यात्मात् इति रूपं निष्पद्यते, किन्तु अन्य विभक्तिषु अध्यात्मा योगः अम् इति एव भवति.
उत्तमं, सम्यक् महोदय. तावदेव, एतावत् तत्सर्वं वयं पठितवन्तः एव. अव्ययीभावश्च सूत्रेण अव्ययपदं भवति, अपि च नपुंसकलिङ्गपदमपि भवति. अत्र तदनन्तरं सुप्रत्ययानां विधानं भवति, सुबोत्पत्तिः भवति. तत्र प्रातिपदिकं सर्व तत्र शब्दस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा ञाप्रातिपदिकात् अपि च स्वौज समौट् इति दीर्घसूत्रेण इत्याभ्यां सूत्राभ्यां सुप्रत्ययानां विधानं भवति अन्ततो गत्वा. अपि च अत्र अव्ययात् आप्सुपः इति सूत्रं प्रबाध्य न अव्ययीभावात् ततोऽन्त्वपञ्चम्याः इति सूत्रस्य प्रसक्तिः भवति. उत्तमम्. अरुणा भगिनी, भवती पठतु अग्रिमे परिच्छेदे किमस्ति.
आं भगिनि, अध्यात्मयोगः अमिपूर्वः, तदेव भगिनि, अमिपूर्वः इत्यनेन अक्वर्णात् अं शब्दिनी अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः स्यात्. पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति. तृतीया सप्तम्योर्बहुलम् इति सूत्रेण अदन्त अव्ययीभात् परे तृतीयसप्तम्योः च स्थाने विकल्पेन अमादेशः भवति. अनेन तृतीयविभक्तौ अपि च सप्तमी विभक्तौ रूपद्वयं सम्भवति. अध्यात्मम् अध्यात्मेन, अध्यात्मम् अध्यात्मे. अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति. पञ्चमी विभक्तौ अध्यात्मात् इति रूपं भवति. अत्र नूतनसूत्रमस्ति, अध्यात्मयोगः अं प्रत्यय आगच्छति. अं प्रत्यय द्वितीय एकवचनप्रत्ययः. अमिपूर्वः इति सूत्रं वदति अक्वर्णात् अं सम्बन्धिनि अचिपरे, केवलम् अं प्रत्यय अत्र अचिपरे, तत् अत्र अचिवर्णः अस्ति. तत् ततः पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति. पञ्चमी विभक्त्यां न भवति, केवलम् अन्येषु विभक्तिषु भवति ततः अज्ञातम् इति रूपं सिद्धं भवति. अन्यसूत्रम् अस्ति तृतीया सप्तम्योर्बहुलम् इति सूत्रेण अदन्त अव्यविभावात् परे तृतीय सप्तम्यन्तौ द्विरूपं विकल्पेन अमादेशः आगच्छति. ततः एकं रूपम् अध्यात्मं तृतीयविभक्त्यां अध्यात्मं वा अध्यात्मेन रूपं सप्तमे विभक्तौ अध्यात्मं वा अध्यात्मे इति द्वे विकल्परूपं द्वे रूपं भवति. परन्तु सप्तमी पञ्चमी विभक्तिविषये केवलं आम् आदेशः न भवति. सुप्रत्ययरूपं प्रत्यय एव आगच्छति. ततः रूपम् अध्यात्मात् इति रूपं सिद्धं भवति.
उत्तमम् उत्तमं भगिनि. अमिपूर्वः इति सन्धिकार्यमस्ति. अमिपूर्वः किं वदति? पूर्वः इत्युक्ते पूर्वरूपादेशः. कदा? अम् सम्बन्धि अचि परे. अत्र अम् इति प्रत्ययः अस्ति. तत्र अम् सम्बन्धि अच् वर्णः अत्र अस्ति इति कृत्वा अध्यात्मयोगः अम् अत्र अमिपूर्वः सूत्रेण पूर्वरूपादेशः भूत्वा अध्यात्मम् इति रूपं सिद्ध्यति. किन्तु तृतीया सप्तम्योर्बहुलम् इति सूत्रेण विकल्पेन अमादेशः भवति इति वयं ज्ञातवन्तः. उदाहरणार्थम् अत्र एकम् अन्यत् पदं दत्तवती भगिनी, उपराजम्. उपराजम् इति पदमपि एतादृशरीत्या एव सोपानानि समीचीनतया लिखित्वा रूपसाधनं करणीयम्. अत्र उपराजम् इत्युक्ते राज्ञः समीपम् इति अर्थः. एकम् अन्यत् पदमपि अहं दृष्टवती, अतः वदामि. पञ्चानां समीपम् उपपञ्चम्. तत्र पञ्च इति पदमपि नकारान्तपदं. तत्र प्रातिपदिकं पञ्चन् अस्ति. तत्र समस्तपदमस्ति उपपञ्चम्. पञ्चानां समीपम् उपपञ्चम्, तस्मिन् पदे अपि एतेषां सूत्राणां प्रसक्तिः भवति. अत्र सारांशरूपेण अस्माभिः किं स्मर्तव्यम् इति किञ्चित् सरला भगिनी एकवारं स्मारयतु. सारांशरूपेण किं स्मर्तव्यम्? सारांश
भगिनी, अहं व्यस्ता अस्मि.
चिन्ता मास्तु. अत्र श्रीराम महोदय, भवान् एकवारं सारांशरूपेण किञ्चित् वदतु. उत्तरपदं हलन्तं चेत्
अस्तु भगिनि, यदा उत्तरपदं हलन्तम् अस्ति चेत् तदा पुल्लिङ्ग अनन्तः पुल्लिङ्गस्त्रीलिङ्ग वा नपुंसकलिङ्ग वा इति द्रष्टव्यम्. यदा पुल्लिङ्गः अस्ति चेत् तदा अनश्च इति सूत्रेण तत्र कार्यं भवति. नपुंसकलिङ्गः अस्ति चेत् तत्र नपुंसकात् अन्यतरस्याम् इति सूत्रेण कार्यं भवति. अनश्च सूत्रं किं वदति? तत्र अनन्तात् पुल्लिङ्गात् अथवा स्त्रीलिङ्गात् अविर्भावात् अनन्तात् पुल्लिङ्गात् स्त्रीलिङ्गात् तच् प्रत्यये योजनीयः इति वदति. एवमेव नपुंसकलिङ्ग लिङ्गे नपुंसकादन्यतरस्यां विकल्पेन टच् प्रत्ययः आदिश्यते निदीयते. इदानीं टच् प्रत्यये अनुबन्धलोपानन्तरम् अकार एव अवशिष्यते. इदानीं नष्टगीते इति सूत्रं तत्र प्रवर्तते. तत् सूत्रं किं वदति इति चेत्, यदि यदि तद्धितप्रत्ययः परे अस्ति तदा किं बस्सब्निकस्य बस्सब्निकस्य अङ्गस्य टि भागस्य लोपः भवति. तदनन्तरं इदानीं टच् इति प्रत्ययः लोपानन्तरम् अकारः अस्ति. सः अकारः कीदृशः अकारः इत्युक्ते तत्र बस् यचिबम् इति सूत्रेण बसज्ञा भवति खलु, तत्र अकारः यकारप्रत्ययानां परे तदा अङ्गस्य बसज्ञा भवति. इदानीं तच् प्रत्यय अनुबन्धलोपनन्तरम् अकारः अवशिष्यते इति कृत्वा तत्र अव्ययभावात् अनन्तात् अव्ययभावात् तत्र बसज्ञा भवति. इदानीम् उदाहरणार्थम् अध्यात्मम् इति स्वीकुर्मश्चेत् तत्र अन्तिम टी संज्ञा कृते अन्तिम अच् वर्णात् तदनन्तरं यत्किमपि वर्णसमूहः अस्ति तेषां टी तस्य समूहस्य टी संज्ञा अस्ति, तस्य टी संज्ञस्य तत्र लोपः भवति. तदा अध्यात्मन् इत्यत्र अण् इत्य अण् इति अस्ति अन्ते, तद् टी संज्ञा तस्य टी संज्ञा भवति, वर्णद्वयस्य टी संज्ञा भवति, तदा नष्टजिते इति सूत्रेण लोपः भवति. इदानीम् अध्यात्म इति भवति, तदनन्तरम् आ इति अस्ति, तद् योजनेन अध्यात्म इति भवति. इदानीं सुप्रत्यय योजयामश्चेत् तदनन्तरम् अव्ययतापसुपः, इदानीम् अव्ययतापसुपः इति सूत्रेण सुप् लुक् लुक् भवति, अव्ययभाव इति कारणेन तत्र सुप् लुक् भवति. इदानीं नव्ययभावात् अतोम्यपञ्चम्याः इति सूत्रेण किं भवति, तत्र अव्ययभावात् अदन्तात् अव्ययभावात्, इदानीम् अध्यात्म इति अदन्तः अस्ति, अदन्तः अस्ति, तस्मात् किं करणीयम्, अम् इति प्रत्ययः योजनीयं नव्ययभावात् अतोम्यपञ्चम्याः इति तु पञ्चमी विहाय एतत् कार्यम् अम् योजनं पञ्चमी विहाय अन्यत्र सर्वत्र भवति. अतः इदानीम् अध्यात्मयोग अम् इति प्रथमविभक्ति एकवचनं रूपं पश्यामश्चेत् अध्यात्मयोग अम् इति भवति. अमिपूर्व इति सूत्रेण तत्र पूर्व आदेश पूर्व पूर्वे अकारे एव
वृद्धि
पूर्वरूप आदेश एव भवति, तत्र अध्यात्मम् इति रूपं भवति, आहत्य अध्यात्मम् इति भवति. पञ्चमे विभक्ति अध्यात्मात् अध्यात्मात् इति भवति. तृतीयतन्त्रं तृतीयसप्तम्योद्बहुलम् इति सूत्रं किं भवति, तृतीयविभक्तौ एवं सप्तमीविभक्तौ अपि विकल्पेन तत्र सुप्रत्ययः योजनीयः इति कृत्वा अध्यात्मेन तदनन्तरम् अध्यात्मे इति अपि रूपं भवितुम् अर्हति.
उत्तमं, सम्यक् महोदय. अपि च अत्र नकारान्तस्त्रीलिङ्गपदानि सन्ति वा इति चिन्तयामश्चेत् अत्र पदद्वयं दत्तवती भगिनी, सीमन् इति नकारान्तपदं, दामन् इत्यपि स्त्रीलिङ्गनकारान्तपदमस्ति. अपि च अत्र सरस्वती भगिनी, अन्तिमः विषयः अस्ति, टच् प्रत्ययस्य विधानं न भवति चेत् तत्र कीदृशं परिवर्तनं भवति, अत्र टच् प्रत्ययस्य विधानस्य प्रयोजनं किं, टच् प्रत्ययस्य योजनेन कीदृशपरिवर्तनम् अभवत् अत्र?
टच् प्रत्ययस्य विधानेन अत्र तु नस्तद्धिते सूत्रस्य प्रसक्तिः भवति, अतः भसंज्ञकस्य भसंज्ञक इति वयं जानीमः, टीसंज्ञकस्य लोपः भवति, तथा च हलन्त यत् अस्ति तद् इदानीं टीसंज्ञकस्य लोपतः एतत्तु इदानीं मिलित्वा अच् अच् अदन्त भवति.
उत्तमम्,
अतः एव अदन्तं भवति, अतः एव न अव्ययभावात् अतोम् अथवा पञ्चम्याः सूत्रस्य प्रसक्तिः भवति.
उत्तमम्, इत्युक्ते आहत्य अत्र कीदृशं कार्यं भवति, टच् प्रत्ययस्य योजनेन हलन्तपदम् उत्तरपदं हलन्तपदम् अस्ति चेत् अदन्तम् अङ्गं भवति, तदर्थमेव टच् प्रत्ययस्य विधानं भवति. यदि पदम् अदन्तं भवति चेदेव नाव्ययीभावादतोऽन्त्वपञ्चम्याः इत्यस्य प्रसक्तिः, अपि च तृतीया सप्तम्योर्बहुलम् इत्यस्य प्रसक्तिः भवितुम् अर्हति. तदर्थमेव अदन्तम् अङ्गम् अपेक्षितं, तदर्थं टच् प्रत्ययस्य विधानं कृतम् इति विषयः. वयम् एकमरीत्या चिन्तनं कृतवन्तः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः.